इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य शेष चरणेभ्यः प्रचारः जवेन विधीयते। राजनीतिक दलानां प्रमुख नेतारः देशस्य विभिन्न भागेषु जनसभाः कुर्वन्ति। प्रधानमन्त्री भाजपादलस्य वरिष्ठो नेता नरेन्द्रमोदी ह्यः उत्तरप्रदेशस्य बाराबंकी जनपदे एकस्यां जनसभायां तृणमूल कांग्रेस समाजवादी पार्टी चेत्यनयोः संयुतौ अधीक्षिपत। उक्तं यत् सपादलेन इदानीं बंगाले शरणम् अवाप्तम्। एतयोः राजनीतिक संयुतिः केवलं मतप्राप्तये तुष्टीकरणाय च वर्तते। समाजवादी पार्टीति दलप्रमुखः अखिलेश यादवः, कांग्रेसदलस्य पूर्वाध्यक्षः राहुल गांधी च संयुक्तरूपेण अमेठी नगरे प्रचारं कुरुतः। अमेठी लोकसभासने स्मृति इरानीं विरुध्य कांग्रेसदलस्य किशोरी लाल शर्मा प्रत्याशित्वेन विद्यते। विदेशमन्त्रालयेन उक्तं यत् भारतं चाबहार जलपोतस्थानकं अफगानिस्तानस्य भूपरिवेष्टित मध्य एशियादेशैः सह सम्पर्ककेन्द्ररूपेण अस्य स्थानकस्य क्षमतां संवर्धयितुं भारतस्य प्रतिबद्धतारूपेण पश्यति। ह्यः अपराह्ने दिल्ल्यां वार्ताहरान् सम्बोधयता विदेशमन्त्रालयस्य प्रवक्त्रा रणधीर जयशवालेन प्रोक्तं यत् भारत ईरान देशयोः मध्ये दीर्घकालिक सहभागित्वं एकः प्रमुख उपलब्धिः अस्ति। प्रवक्ता अवदत् यत् विदेश मन्त्रालयस्य सचिवः दम्मू रविः द्विदिवसीय यात्रायां कजाकिस्तानस्य आस्ताना नगरे अस्य मासस्य 20 दिनांके शंघाई सहयोग संघटनस्य SCO विदेश मंत्री परिषदः उपवेशने भारतस्य प्रतिनिधित्वं करिष्यति। विदेश मन्त्रालयेन कम्बोडिया देशं दक्षिण पूर्व एशिया क्षेत्रं च कार्याणां कृते गम्यमानानां भारतीय नागरिकानां कृते एका सञ्चेतना प्रसारिता अस्ति, यस्मिन् उल्लिखितं यत् ते अनधिकृत प्रतिनिधिभ्यः सावधानाः भवेयुः इति। कम्बोडिया लाओस देशयोः भारतीय दूतावासेन ख्यापितं यत् भारतीयैः प्रतिनिधिभिः सह अस्मिन् क्षेत्रे कार्यं कुर्वन्तः बहवः अनधिकृत मध्यस्थजनाः विशेषतया साइबर अपराधेषु सम्बद्धानाम् अमान्य उद्यमेभ्यः कृते जनान् प्रलोभयन्ति। संचेतनापत्रे उक्तं यत् यः कोऽपि कम्बोडियादेशे कार्यं स्वीकरिष्यति सः केवलं विदेशमन्त्रालयेन अनुमोदितानाम् अधिकृतानां प्रतिनिधीनां माध्यमेन एव। टेबल टेनिस क्रीडायां ह्यः सायं तुर्कीये इत्यत्र WTT कोपादौशिया फीडर इति स्पर्धा मालिकायां भारतस्य पोयम्बती आकाशपालेन च मिश्रित पुरुषयुगल स्पर्धा विजिता। बैडमिंटन क्रीडायां भारतीय क्रीडकाः थाईलैंड देशस्य बैंकॉक नगरे बैडमिंटन मुक्त प्रतिस्पर्धायाः उपांत्य चक्रीय प्रतिस्पर्धायां प्रविष्टवन्तः। युगल पुरुषाणां डबल्स प्रागुपांत्य चक्रीय प्रतिस्पर्धा निर्णायके द्वन्द्वे भारतस्य सात्विक साईराज रंकी रेड्डी चिराग सेट्टी च मलेशिया देशस्य आरके याप इत्यनेन जे आरिफ इत्यमुं च 1:27 1:24 इत्यांकांतरालेन पराजितम्। आईपीएल क्रिकेट स्पर्धा मालिकायां मुंबई नगरे लखनऊ सुपर जॉयंट्स दलेन मुंबई इंडियंस दलं 18 धावनांकैः पराजितम् इति वार्ताः।